Then next we remember the 9 planets whom we worship, 2-line stotra, then 9 separate ones also. I'll record both.
ब्रह्ममुरारिस्त्रिपुरान्तकारी भानुशशिभूमिसुतो बुधश्च गुरुश्च शुक्रः शनिराहुकेतव कुर्वन्तु सर्वे मम सुप्रभातम्। ब्रह्ममुरारिस्त्रिपुरान्तकारी भानुशशिभूमिसुतो बुधश्च गुरुश्च शुक्रः शनिराहुकेतव कुर्वन्तु सर्वे मम सुप्रभातम्। ब्रह्ममुरारिस्त्रिपुरान्तकारी भानुशशिभूमिसुतो बुधश्च गुरुश्च शुक्रः शनिराहुकेतव कुर्वन्तु सर्वे मम सुप्रभातम्। ब्रह्ममुरारिस्त्रिपुरान्तकारी भानुशशिभूमिसुतो बुधश्च गुरुश्च शुक्रः शनिराहुकेतव कुर्वन्तु सर्वे मम सुप्रभातम्। ब्रह्ममुरारिस्त्रिपुरान्तकारी भानुशशिभूमिसुतो बुधश्च गुरुश्च शुक्रः शनिराहुकेतव कुर्वन्तु सर्वे मम सुप्रभातम्।
each planet separately. In a very famous shloka given by Veda Vyas, it's very effective. If all the 9 shlokas are done, very good. If not, you can do the shloka of the Mahadasha and Antardasha.
Japa kusuma sankasham kashyapeyam mahadyutim tamo arim sarvapapadham pranatosmi divakaram dadishankha tusharabham kshirodarnavasambhavam namami shashinam somam shambhurmukutabhushanam dharani garbhasambhutam vidyutakanti samaprabham kumaram shaktihastam tam mangalam pranamamyam priyangu kalikashamam rupena pratimam budham saumyam saumya gunopetam tam budham pranamamyam. Devanam cha rishinam cha guru mukanchana sannibham buddhibhutam trilokesham tam namami brihaspatim imakundaminalabham daityanam paramam gurum sarvashastra pravaktaram bhargavam pranamamyam neelam jana samabhasam raviputram yamagrajam chayamatanda sambhutam tam namami shanaischaram. Ardhakayam Mahavīryam Chandraditya Vimardhanam Simmika Garbha Sambhutam Tam Rahum Pranamamyam Palasha Pushpa Sankasham Taraka Graha Mastakam Raudram Raudratmakam Ghoram Tam Ketum Pranamamyam.